इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। सर्वेभ्यः प्रिय श्रोतृभ्यः दीपावली पर्वणः कोटिशः शुभकामनाः। प्रकाशपर्वोऽयं सर्वेषां कृते मङ्गलं भूयात्। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना नागरिकान् आहूतं यत् ते उत्सवावधौ स्वदेशी उत्पादान् क्रीत्वा चत्वारिंशदधिकैकशतकोटि भारतीयानां परिश्रमस्य उत्सवम् आचरन्तु। श्रीमोदी नागरिकान् आहूतं यत् ते उत्सवेषु यत्किमपि क्रीतवन्तः तत् सामाजिकपटलेषु प्रसारयन्तु, अनेन अन्येऽपि तथैव कर्तुं प्रेरिताः भविष्यन्ति इति प्रधानमन्त्री अवदत्। माई जी ओ वी इंडिया इत्यस्य एकस्य सन्देशस्य प्रत्युत्तरे श्रीमोदी भारते निर्मितानां उत्पादानां क्रयणस्य आवश्यकतायाः उपरि बलं प्रदीय उक्तवान् यत् गर्व से कहो ये स्वदेशी हैं। आत्मनिर्भरतायाः आर्थिक शक्तिकरणस्य च सन्देशं सुदृढीकरणाय स्थानीय उद्योगानां शिल्पिनां च प्रोत्साहनाय राष्ट्रव्यापि आन्दोलनस्य मध्ये एव प्रधानमन्त्रिणः आह्वानम् आगतम्। अस्य उपक्रमस्य समर्थनं कुर्वन् माई जी ओ वी इण्डिया इत्यनेन सेलिब्रेट दिवाली एण्ड एम्पावर स्वदेशी इत्यनेन शीर्षकेन विशेषाभियानं समारब्धम्, येन नागरिकाः अस्मिन् उत्सवे केवलं स्वदेशी उत्पादान् एव क्रेतुं प्रतिज्ञां स्वीकर्तुम् आमन्त्रिताः। बिहारराज्ये विधानसभा निर्वाचनस्य द्वितीय चरणस्य कृते नामांकन प्रक्रिया अद्य समाप्यते। अस्मिन् चरणे आहत्य त्रिचत्वारिंशदधिक द्विशतासनेषु द्वाविंशत्यधिकैकशत निर्वाचनक्षेत्रेषु नवम्बर एकादश दिनांके मतदानं भविष्यति। सहैव अद्य विधानसभा निर्वाचनस्य प्रथमस्य चरणस्य कृते नामांकन प्रत्यावर्तनस्य अन्तिमा तिथिः अपि अस्ति। अष्टादश मण्डलानाम् एकविंशत्यधिकैकशत निर्वाचनक्षेत्रेषु प्रथमचरणे नवम्बर षड् दिनांके मतदानं भविष्यति। नवम्बर मासस्य चतुर्दश दिनांके मतानां गणना चापि भविष्यति। अशेषे हि देशे अद्य दीपावली इति प्रकाशपर्व हर्षोल्लासेन सश्रद्धं च आमान्यते। अवधेयास्पदमस्ति यत् भगवतः श्रीरामस्य अयोध्यां प्रत्यागमनावसरे इदं पर्व आमान्यते। अस्मिन् पर्वणि देव्याः लक्ष्म्याः पूजनमपि विधीयते। अशेषे हि भारते मन्दिराणि भवनानि च विद्युद्दीपैः मृद्दीपैश्च प्रकाशमानानि सन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः च दीपावल्यावसरे राष्ट्राय शुभकामनाः प्रदत्तवन्तौ। स्वसन्देशे राष्ट्रपतिः मुर्मुः अवदत् यत् दीपावली भारतस्य लोकप्रियेषु उत्सवेषु अन्यतमः अस्ति। सा अवोचत् यत् अयमुत्सवः अन्धकारस्योपरि प्रकाशस्य, अज्ञानस्योपरि ज्ञानस्य, अशुभस्योपरि शुभस्य च विजयस्य प्रतीकः अस्ति इति। लोकसभायाः अध्यक्षः ओम बिरला वर्यः दीपावल्यावसरे देशवासिनां कृते शुभाशयाः प्रेषितवान्। सः गोवर्धनपूजा, भाईदूज इत्यादीनाम् आगामि उत्सवानां कृतेऽपि शुभकामनाः प्रदत्तवान्। अयोध्यायां ह्यः सायम् आयोजिते दीपोत्सव समारोहे षड्विंशतिलक्षसंख्यकाः मृद्दीपाः प्रज्वाल्य गिनीज वर्ल्ड रिकॉर्ड इत्यस्मिन् वैश्विक कीर्तिमानं संस्थापितम्। दीपोत्सव समारोहः अनवरतं नववर्षेभ्यः आयोज्यते। ऐषमः दीपोत्सवस्य आकारः स्तरश्च वर्धितो जातः। नगरस्य विभिन्न भागेषु अन्यघट्टेषु मृद्दीपाः प्रज्वालिताः। सम्पूर्णमपि अयोध्यानगरं दीपैः जाज्ज्वल्यमानं जातम्। रेलमन्त्री अश्विनी वैष्णवः रेलविभागस्य अधिकारिभिः सह गतरात्रौ आनन्दविहार रेलस्थानकं गत्वा दीपावली छठ उत्सवानां च दृष्ट्या यात्रीणां कृते कृतानां व्यवस्थायाः अवलोकनं कृतवान्। भ्रमणावधौ सह यात्रिभिः सहापि वार्तालापं कृत्वा व्यवस्थायाः विषये तेषां प्रतिक्रिया पृष्टवान्। पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य एशियन यूथ गेम्स क्रीडायां भारतस्य पञ्चदशवर्षीया खुशी इत्यनया बहरीन देशे देशस्य कृते ह्यः कुराश क्रीडायां कांस्यपदकं विजितवती इति वार्ताः।